एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अष्टादश मासानाम् अभ्यन्तरे अद्य पञ्चमवारं विश्वासस्य मतं गृह्णाति। पश्चात्तन समये प्रधानमन्त्रिणे प्रचण्डाय समर्थनं दत्तवता नेकपा एमाले दलेन समर्थनस्य प्रत्यावर्तनानन्तरं संविधानस्य अनुसारेण अद्य पुनः प्रतिनिधिसभायाः उपवेशे प्रधानमन्त्री प्रचण्डः विश्वासस्य मतं गृह्णाति। प्रधानमन्त्री प्रचण्डः अद्य प्रतिनिधिसभायाः उपवेशे कार्यसूचौ विश्वासमतसम्बद्धस्य प्रस्तावस्य समावेशनाय संघीय संसदि पूर्वमेव सूचितवान् अस्ति। नेपालस्य संसदीय इतिहासे प्रधानमन्त्रिणा सार्धैक वर्षाभ्यन्तरे पञ्चमवारं विश्वासस्य मतग्रहणस्य सम्भवतः एषा प्रथमा घटना अस्ति। संसदः विपुलाभ्याम् नेकपा एमाले नेपाली कांग्रेस दलाभ्याम् अस्य वा षाढस्य सप्तदशे दिवसे नूतन सत्ता समीकरणस्य कृते सहमतिः धृता आसीत्। द्वयोः दलयोः क्रमेण सर्वकारस्य नेतृत्वस्य ग्रहणस्य शपथं कृत्वा सर्वकारस्य संघटनाय सहमतिः निर्णयश्च विहितौ स्तः। नेपाली कांग्रेस दलेन स्वदलस्य प्रतिनिधिसभा सदस्यः विश्वासस्य मतस्य विपक्षे मतं दातुं निर्दिष्टाः सन्ति। नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः प्रतिनिधिसभा सदस्यान् अनिवार्यतया उपवेशे उपस्थातुं तटस्थे नावस्थातुं प्रधानमन्त्रिणा प्रचण्डेन प्रस्तोष्य माणस्य विश्वासस्य मतस्य विपक्षे मतं दातुं च निर्दिष्टवान् अस्ति। जनमत दलेन प्रधानमन्त्रिणे प्रचण्डाय विश्वासस्य मतं न दीयते। दलस्योपवेशेन प्रधानमन्त्रिणे प्रचण्डाय विश्वासस्य मतं न दातुं निर्णीतमस्तीति दलस्य प्रवक्ता डाक्टर शरद सिंह यादवः असूचयत्। राष्ट्रिय प्रजातन्त्र दलेनापि प्रधानमन्त्रिणे प्रचण्डाय विश्वासस्य मतं न दातुं निर्णीतमस्ति। राप्रपा दलस्य संसदीय दलस्य ह्यस्तनोपवेशेन प्रधानमन्त्रिणा प्रचण्डेन प्रस्तोष्य माणस्य विश्वासस्य मतस्य विपक्षे मतं दातुं निर्णीतमस्तीति दलस्य प्रवक्ता मोहन श्रेष्ठ अज्ञापयत्। एवमेव अशोक राई नेतृत्वस्य जनता समाजवादी दलेनापि प्रधानमन्त्रिणा प्रचण्डेन प्रस्तोष्य माणस्य विश्वासस्य मतस्य विपक्षे मतं दातुं निर्णीतमस्ति। प्रतिनिधिसभायाः उपवेशः स्थगितीभूतोऽस्ति। ह्यः उपवेशस्य प्रारम्भानन्तरं नेपाली कांग्रेस दलस्य सांसदः रामहरि खतिवडा प्रधानमन्त्रिणः मन्त्रिणाञ्च कस्यापि उपस्थितिः नास्तीति उक्त्वा सभामुखस्य देवराज घिमिरे विदस्य ध्यानम् आकर्षयत्। तदनुपदमेव सभामुखः घिमिरे प्रतिनिधिसभायाः उनाशीत्युत्तर द्विसहस्रतम विक्रमवर्षीय नियमावल्याः षष्ठ नियमस्य पञ्चमोपनियमस्य अनुसारेण उपवेशे मन्त्रिणः उपस्थितिरनिवार्यता अनिवार्यास्तीति उपवेशम् असूचयत्। सभामुख घिमिरे उपवेशे कस्यापि मन्त्रिणः उपस्थितेरभावेन उपवेशः अद्य पूर्वाह्नस्य एकादशवादने उपवेशनत्वेन स्थगितोऽस्तीति उदघोषयत्। राष्ट्रियसभायाः ह्यस्तनोपवेशः रविवासरे सपादैकवादनं यावत् स्थगितो वर्तते। ह्यस्तनाय दिवसाय निर्धारितः उपवेशः विशेषकारणेन उपवेष्टुं न शक्तः इत्यतः राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः अपर उपवेशं रविवासरे दिवा सपादैकवादने आहूतवान् अस्तीति संघीय संसद सचिवालयस्य महासचिवेन पद्मप्रसाद पाण्डेयेन प्रकाशितायां सूचनायाम् उल्लिखितं वर्तते। अत्रान्तरे नेपाली कांग्रेस नेकपा माले जनता समाजवादी लोकतान्त्रिक समाजवादी दलै राष्ट्रिय सभायाः उपवेशस्य स्थगनस्य विषयं प्रति ध्यानाकर्षणं सम्भूतम् अस्तीति ज्ञापितं वर्तते। ह्यस्तन दिवसाय निर्धारिते राष्ट्रिय सभायाः कार्यव्यवस्था परामर्श समितेः उपवेशे प्रायः सदस्यानाम् असहमतौ सत्यामपि राष्ट्रिय सभायाः उपवेशः सहसा स्थगितो भवदित्युक्त्वा एभि दलै ध्यानाकर्षणं सम्भूतम् अस्तीति ज्ञापितं वर्तते। अस्यैव आषाढस्य त्रयोविंशे दिवसे एव नियमित कार्यसूच्यां प्रविष्टानि एतत् विक्रमवर्षीयाणि आर्थिक विधेयकं राष्ट्र ऋणोत्थापन विधेयकं सीमा प्रवेश शुल्क सम्बद्धं विधेयकञ्च पारिति कर्तव्यानि आसन् परं अर्थमन्त्रिणः अनुचित मनोभावस्य कारणेन ह्यस्तनोपवेशे अर्थमन्त्रिणः अनुपस्थितिरस्तीति निगद्य राष्ट्रियसभायाः अध्यक्षः एतेषां दलानाम् असहमतौ सत्यामपि उपवेशम् अस्थगयदिति चतुर्भिः दलैः प्रकाशितायां संयुक्त विज्ञप्तौ ज्ञापितं वर्तते। सर्वकारेण सत्यनिरूपण मेला आयोगस्य कार्यावधिम् एकवर्षम् वर्धयितुम् निर्णीतमस्ति। सिंहप्रासादवर्तिनि प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः उपविष्टेन मन्त्री परिषदः उपवेशेन विलोपितानां जनानाम् अन्वेषण आयोगस्य सत्यनिरूपण मेला आयोगस्य च कार्यावधिः आगामिनः द्वयशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य आषाढमासान्तं यावत् वर्धयितुम् निर्णीतमस्ति इति संचार सूचना प्रविधि मन्त्री रेखा शर्मा असूचयत्। मन्त्री परिषदः उपवेशेन सामाजिक सुरक्षा सेवायाः कृते राष्ट्रिय परिचय पत्रस्य अनिवार्यता सम्बद्धम् इतः पूर्व मन्त्री परिषदा विहितं निर्णयं न क्रियान्वयितुं निर्णीतमस्ति इति मन्त्री शर्मा अज्ञापयत्। मन्त्री परिषदः उपवेशेन एतद् विक्रमवर्षीया स्थानीय स्तर राजस्व व्यवस्थापन प्रणाली संचालन निर्देशिका एतद् विक्रमवर्षीयः सर्वकारीय कोषस्य वित्त व्यवस्थापन सम्बद्धः कार्यविधिश्च स्वीकृतोऽस्ति। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भाषते सर्वकारेण सूचना संचार प्रविधे महत्वम् आत्मसात्कृत्य नेपालस्य रणनीतिक क्षेत्रस्य रूपेण क्षेत्रमिदं समाविष्टम् वर्तते। पुलचोकवर्तिनी स्थापत्य महाविद्यालये ह्य आयोजिते कार्यक्रमे मन्त्री शर्मा समृद्ध नेपालस्य लक्ष्यं पूरयितुं सूचना प्रविधि क्षेत्रम् षोडश्याम् योजनायां महत्वपूर्णस्य क्षेत्रस्य रूपेण संगृहीतमस्ति इति असूचयत्। सर्वकारेण ललितपुरस्य खुमलटार स्थाने ज्ञान केन्द्रस्य संचालनाय पूर्व कार्यं विहितमस्ति इति चर्चयन्ती मन्त्री शर्मा सप्तषु प्रदेशेषु सूचना प्रविधेर विकासः आवश्यको स्थिति अवोचत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा गदति केनापि एकेन दलेन एव अपेक्षिते सति संविधानस्य संशोधनं भवितुं न शक्नोति। विराटनगर विमानस्थले ह्यः संचारकर्मिभिस्सह संक्षेपेण भाषमाणः महामन्त्री थापा संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्थायां प्रभावस्य सर्जनत्वेन संविधानस्य संशोधनं न भविष्यति इति समस्पष्टयत्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शशांक कोइराला नेपाली कांग्रेस नेकपा एमाले दले मिलित्वा राष्ट्रिय सर्वकारस्य संघटनं विहितं सदपि प्रतिपक्षिणा दुर्बलेन न भाव्यमिति विचारं व्यक्तवान्। नैरन्तरेण जायमानायाः वृष्टेः कारणेन देशस्य विभिन्नेषु भागेषु वर्तमानासु भौतिक संरचनासु क्षतिप्राप्त्या सहैव मार्गाणाम् अवरोधनात् यातायात साधनानि मार्गे एव अवरुद्धानि सन्ति। जलविप्लव भूस्खलन हि आराष्ट्रं द्वात्रिंशदधिकैकशते मार्गखण्डेषु यातायात सेवा प्रभाविता अस्ति। नेपाल प्रहरिणा नैरन्तरेण जायमानायाः वृष्टेः कारणेन देशस्य विभिन्नेषु स्थानेषु राजमार्गाः अवरुद्धाः सन्तीत्यतः सम्यक्तया विज्ञायैव यात्रां प्रारब्धुम् अनुरुद्धमस्ति। केन्द्रीय प्रहरिणः प्रवक्ता प्रहरी नायब महानिरीक्षकः दानबहादुर कार्की यात्रिणां मध्यमार्गे एव यातायात साधनानाम् अवरोधस्य कारणेन असहायावस्थायाः प्राप्तेः सम्भावनायाः सत्वात् मार्गाणां स्थितिं विज्ञायैव यात्रां प्रारब्धुं साधारणजनाः अनुरुद्धा सन्ति इति अवोचत्। मार्गाणाम् अवरोधस्य अभावस्थलेष्वपि यातायात साधनानां सम्मर्दस्य स्थितेः कारणात् यथासम्भवं यात्रां न कर्तुं यात्राया अनिवार्यतायां सत्यां सम्यक्तया ज्ञात्वैव यात्रां प्रारब्धुं च प्रवक्ता कार्की अन्नरुणत्।